ओम श्री परमात्मने नमः। श्रीमद् भगवद गीता अथ प्रथम अध्याय। धृतराष्ट्र उवाच, धर्मक्षेत्रे कुरुक्षेत्रे समवेता युजोत्सवः, मामकः पांडवाश्चैव किम कुर्वत संजय। संजय उवाच, दृष्ट्वा तु पांडवानीकं व्युढं दुर्योधनस्तदा, आचार्यमुपसंगम्य राजा वचनमब्रवीत्। पश्यैतां पांडुपुत्राणां आचार्य महतीं चमुं, व्युढां द्रुपदपुत्रेण तव शिष्येन धीमता। अत्र शूरा महेश्वासा भीमार्जुनसमायुधि, युयोधानो विराटश्च द्रुपदश्च महारथः, दृष्टकेतुश्चैकितान् काशीराजश्च वीर्यवान्, पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः, युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्, सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः। अस्माकं तु विशिष्टायै तान्निबोध द्विजोत्तम, नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते, भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः, अश्वत्थामविकर्णश्च सोमदत्तिस्तथैव च, अन्ये च बहवः शूरा मदर्थे त्यक्तजीविता, नानाशस्त्रप्रहरणः सर्वे युद्धविशारदाः, अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं, पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्, अयनेषु च सर्वेषु यथा भागमवस्थिताः, भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि, तस्य सञ्जनयन् हर्षं कुरु वृद्धः पितामहः, सिंहनादं विनद्योच्चै शङ्खं दद्मो प्रतापवान्, ततः शङ्खाश्च भैर्यश्च पणवान् कगोमुखः, सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोऽभवत्, ततः श्वेतेर्हये युक्ते महति स्यन्दने स्थितौ, माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदद्मतु, पाञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जयः, पौण्ड्रं दद्मो महाशङ्खं भीमकर्मा वृकोदरः, अनन्तविजयं राजा कुन्तिपुत्रो युधिष्ठिरः, नकुलः सहदेवश्च सुघोषमणिपुष्पकौ, काश्यश्च परमेश्वास शिखण्डी च महारथः, धृष्टद्युम्नो विराटश्च सात्यकीश्च पराजितः, द्रुपदो द्रौपदेयाश्च सर्वश पृथिवीपते, सौभद्रश्च महाबाहु शङ्खान् दद्मु पृथक् पृथक्, सघोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्, नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्। अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः, प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः, ऋषिकेशं तदा वाक्यं मिदमाह महीपते। अर्जुन उवाच, सैनयोरुभयोर्मध्ये रथं स्थापयमेच्युत, यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्, कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे, योच्यमानानवेक्षेऽहं य एतेऽत्र समागतः, धार्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षवः। संजय उवाच, एवमुक्तो ऋषिकेशो गुडाकेशेन भारत, सैनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमं, भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान् समवेतान् कुरुनिधि, तत्रापश्यन् स्थितान् पार्थ पितृनाथ पितामहान् आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथा स्वसुरान् सुरदश्चैव सैनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् कृपया परया विष्टो विशिदन्नीदमब्रवीत्। अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सं समुपस्थितं सिदन्ति मम गात्राणि मुखं च परिशुष्यति वेपथुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं स्त्रंसते हस्तात् त्वक्चैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयोऽनुपश्यामि हत्वा सजनमाहवे न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा येषामर्थे काङ्क्षितं नो राज्यं भोगः सुखानि च त इमेव स्थिता युद्धे प्राणां त्यक्त्वा धनानि च आचार्यः पितरः पुत्रा तथैव च पितामहा मातुलः स्वसुरा पौत्रा श्याला सम्बन्धिनस्तथा एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किं नो मही कृते निहत्य धार्तराष्ट्रान्न का प्रीतिः स्यात् जनार्दन पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखी नः स्याम माधव यद्यप्येतेन पश्यन्ति लोभोपहत चेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकं कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुं कुलक्षयकृतं दोषं प्रपश्यद्भि जनार्दन कुलक्षये प्रणश्यन्ति कुलधर्मः सनातनः धर्मे नष्टे कुलं कृष्णं अधर्मो विभवत्युत अधर्माविभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रिषु दुष्टासु वार्ष्णेय जायते वर्णशङ्कर शङ्करो नरकायैव कुलज्ञानां कुलस्य च पतन्ति पितरो येषां लुप्तपिण्डोदकक्रिया दोषैरेतै कुलज्ञानां वर्णशङ्करकारकैः उत्साद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वता उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुम अहो बत महत्पापं कर्तुं व्यवसिता वयं यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यतः यदि मां प्रतीकारम् अशस्त्रं शस्त्रपानय धातराष्ट्रारणे हन्यु स्तन्मे क्षेमतरं भवेत्। सञ्जय उवाच एवमुक्त्वा अर्जुनः शङ्खे रथोपस्थ उपाविशत् विसृज्य ससरं चापं शोकसंविघ्नमानसः। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादियोगो नाम प्रथमोऽध्यायः।